एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः नेपाली सेनायाः प्रधान सेनापति पदे बलाधिकृत रथिनम् अशोक राज सिग्देलम् अस्यैव भाद्रमासस्य चतुर्विंशात् दिवसात् क्रियान्वयनत्वेन नियुक्तवान् अस्ति। राष्ट्रपतिः पौडेलः नेपालस्य संविधानस्य अनुसारेण नेपाल सर्वकारस्य मन्त्रिपरिषदः परामर्शेन सम्प्रति नेपाली सेनायाः कार्यवाहक प्रधान सेनापतित्वेन कार्यं कुर्वाणं सिग्देलं प्रधान सेनापति पदे नियुक्तवान् अस्तीति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षायाः सहयोग प्रापकानां कार्याणाम् अनुसन्धानं विधाय नीतिगत परामर्शान् प्रदातुं नित्यनुसन्धान प्रतिष्ठानस्य पदाधिकारिणः अनुरोणाद्धि। सिंहप्रासादवर्तिने प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः प्रतिष्ठानस्य पदाधिकारिभिः सह विहिते विमर्शने प्रधानमन्त्री ओली सर्वकारस्य लक्ष्येण विकासेन च संयोज्य मन्त्रालयैः विश्वविद्यालयैश्च संयोजनं कृत्वा अनुसन्धानं विधेयमिति बलं प्रददत्। प्रमाणानाम् आधारेणैव नीतिः निर्मातव्या इति प्रावोचत्। प्रधानमन्त्री ओली अनुसन्धान प्रतिष्ठानेन एकाकिना एव कार्यं कृत्वा परिणाम प्राप्तुं न शक्यते, देशस्य आवश्यकतायाः सम्बोधनं न भविष्यतीति च कारणेन अनुसन्धानस्य उच्चतम प्रविधेश्च सहयोगेन देशस्य विकासः सर्वकारस्य प्राथमिकता अस्तीति अवोचत्। तदवसरे प्रतिष्ठानस्य कार्यकार्याध्यक्षः डॉ लेखनाथ नेउपाने विभिन्न मन्त्रालयानां समन्वयेन अधुनावधि 50 अनुसन्धानानि सम्भूतानि सन्तीति विज्ञापितवान् आसीत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन आर्थिक कार्यविधि वित्तीयोत्तरदायित्व सम्बद्धम् एतद् विक्रमवर्षीयं प्रथम संशोधन विधेयकम् आश्रित्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। उपवेशे उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन प्रस्तावोऽसौ प्रस्तुतः आसीत्। उपवेशे विधेयकमाश्रित्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री पौडेलः आयव्ययक प्रणाली व्यवस्थिता विधेया योजनानाम् अध्ययनं कृत्वा आवश्यकतायाः अनुसारेण प्राथमिकतां निर्धार्य एव आयव्ययकं विनियोक्तव्यं, प्रभावकारि क्रियान्वयनं विधेयं चेति बलं प्रादात्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे स्वास्थ्यमन्त्री प्रदीप पौडेलः सार्वजनिक महत्वस्य विषयेषु ध्यानाकर्षणस्य सम्बन्धे उत्तरं प्रददत्। अतिसार डेंगू प्रभृतीनां संक्रमणानां जनस्वास्थ्यस्य अन्येषां समाहयानां समाधानाय स्तरत्रयस्यैव सर्वकारैस्सह समन्वयेन कार्याणि अग्रे वर्धितानि सन्तीति असूचयत्। उपवेशे सांसदः डॉ तोषिमा कार्की, अर्जुन नरसिंह केसी, योगेश भट्टराई, माधव सापकोटा, देवेन्द्र पौडेलः, माओवादी केन्द्रस्य सचेतक पदीयो हितराज पाण्डे च सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई निगदति एकीकृतोच्च शिक्षा विधेयकं शीघ्रम् आनिष्यति। सिंहप्रासादवर्तिनि मन्त्रालये ह्य पत्रकारैस्सह मन्त्री भट्टराई अन्येषां विधेयकानाम् अपेक्षया शिक्षा विधेयकं शीघ्रम् आनिष्यते इति असूचयत्। मन्त्री भट्टराई विधेयकस्य विषये सम्बद्धै पक्षै विधि मन्त्रालयेन अर्थमन्त्रालयेन च सह विमृक्ष्यते इति प्रावोचत्। मन्त्री भट्टराई विद्यालय इव विश्वविद्यालयः अपि राज्येन समाजेन च सह योजनीयः इति चर्चयन्ति। विश्वविद्यालयान् राजनीतिक प्रभावात् दूरे स्थापयितुं राजनीतिक नेतृत्वेन सह विमर्शनं सम्भूतम् अस्तीति च ज्ञापितवती। संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च पृथ्वी सुब्बा गुरूङ भाषते नेपाल टेलिभिजन संस्थानस्य एनटीभी वर्ल्ड इति नवीना विश्वश्रृंखलायाः प्रारम्भाय निर्देशति। नेपाल टेलिभिजन संस्थानस्य कर्मचारी संघेन सिंहप्रासादवर्तिनि संस्थानस्य प्रांगणे आयोजितस्य नेत्र शिविर कार्यक्रमस्य उद्घाटन समारोहे मन्त्री गुरूङ आविश्वं नेपालस्य उपस्थितिं परिचयं च इतोऽपि प्रभावकारिण विधातुं नेपाल टेलिभिजनस्य विश्वश्रृंखला आवश्यकी अस्तीति चर्चयन् तस्या संचालनार्थं पूर्वकार्यं प्रारब्धं व्यवस्थापकान् निरदिशत्। राज्ये समस्याग्रस्ते सति सर्वकारेण संचालितानां निकायानां भूमिका महत्वपूर्णा भवतीति चर्चयन् मन्त्री गुरूङ रेडियो नेपालेन नेपाल टेलिभिजनेन च तदनुसारेणैव स्वकीय भूमिकायाः सिम्नस्य विस्तारस्य आवश्यकता स्थिति उदयरयत। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा सुदूरपश्चिम क्षेत्रस्य विकासाय आत्मनः तत्परता स्थिति प्रतिबद्धतां ज्ञापयति। कैलाली जनपदस्य धनगढ़ी उपमहानगरपालिकायाः चतुर्थ ओडा क्षेत्रे निर्मिते आधारभूत स्वास्थ्य केन्द्रम ओडा कार्यालय भवनञ्च पूर्वेद्य उद्घाटयन्ती परराष्ट्र मन्त्री डाक्टर राणा गौरी फन्टा सीमा प्रवेश बिन्दुः पूर्ण क्षमतायां संचालनत्वेन स्तरोन्नतेः कारेण सह सुदूरपश्चिम क्षेत्रस्य विकासाय सम्प्रति भारत भ्रमणस्य क्रमे भारत सर्वकाराय प्रस्तावः उपस्थापितः इति उदयरयत। तदवसरे मन्त्री डाक्टर राणा भवनानाम् अन्य संरचनानां च निर्माणमेव पर्याप्तं न भवति, तै भवनै ताभि संरचनाभिश्च नागरिकैः स्थानीय स्तरे सेवा सौविध्यं प्राप्तव्यमिति धारणाम् उपस्थापितवती। नेकपा एमाले दलस्य अद्य उपवेश्यमाने सचिवालय उपवेश्य दलस्य वार्षिक्यां कार्ययोजनायां सामयिकेष् राजनीतिकेष् च प्रस्तावेष् विमृश्यते। ललितपुरस्य च्यासलवर्तिनी दलस्य मुख्यालय ह्य उपविष्टेन केन्द्रीय कार्यालयस्य उपवेशेन एषा कार्यसूची निर्धारिता स्थिति एमाले दलस्य प्रचार विभाग प्रमुख राजेन्द्र गौतम अज्ञापयत। एमाले दलेन अद्य दिवा एकवादनाय सचिवालय उपवेश आहूतो वर्तते। नेकपा माओवादी केन्द्रस्य परामर्शोपवेश धनगढ़ी नगरे ह्य प्रारब्धो वर्तते। दलस्य सुदूरपश्चिम प्रदेश संयोजन समितेः आयोजनायां प्रदेशस्य केन्द्रीय सदस्यानां प्रदेश पदाधिकारिणां च परामर्शोपवेश प्रारब्धोऽस्ति। नेकपा माओवादी केन्द्रस्य सुदूरपश्चिम प्रदेशस्य इन्चार्ज पदीयस्य गिरिराज मणि पोखरेलस्य अध्यक्षतायां प्रारब्धम् उपवेशम् अध्यक्षः प्रचण्डः सम्बोधयिष्यति इति कार्यतालिका वर्तते। दलस्य पदाधिकारिणां केन्द्रीय सदस्यानां प्रदेश पदाधिकारिणां च सहभागिता वर्तते। ह्यस्तनात् दिवसात् प्रारब्धे उपवेशे दलस्य सांगठनिकावस्थायाः विषयः विमृश्यमानो स्थिति ज्ञापितमस्ति। उपवेशः अद्य पर्यन्तं चलति। नेकपा एकीकृत समाजवादी दलस्य अष्टादश केन्द्रीय पदाधिकारिणां कृते सम्भूतस्य निर्वाचनस्य परिणाम ह्यः प्रकाशितो वर्तते। मतपरिणामस्य अनुसारेण दलस्य महिलोपाध्यक्षपदे जयन्ती देवी राई, मधेशोपाध्यक्षपदे धर्मनाथ शाहश्च निर्वाचितौ स्तः। एवमेव साधारण उपाध्यक्षपदे जगन्नाथ कतिवडा, डाक्टर गंगालाल तुलाधर, भानुभक्त जोशी, प्रकाश ज्वाला च निर्वाचिता सन्ति। एवमेव उपमहासचिव पदे राजेन्द्र कुमार राई, मेटमणि चौधरी, रामकुमार भट्टराई, गरिमा शाह च निर्वाचिता सन्ति इति दलस्य निर्वाचन आयोगेन ज्ञापितं वर्तते। सचिव पदे बलदेव चौधरी, गणेश विक, शेरबहादुर कुंवर, चन्द्रबहादुर शाही, सोमप्रसाद पाण्डेय, सावित्री भूषाल, श्रीनाथ बरालश्च प्रचिता वर्तन्ते। दलस्य अष्टादश पदाधिकारीभि सहितानां पञ्चोत्तर शतस्य पोलिट ब्यूरो सदस्यानां चयनस्य कृते मंगलवासरस्य रात्रौ मतदानं विहितमासीत्। दलस्य वरिष्ठोपाध्यक्षपदे राजेन्द्र प्रसाद पाण्डेय मंगलवासरे एव सर्वसम्मत्या निर्वाचितो वर्तते। गताषाढमासे सम्पन्नेन महाधिवेशनेन अध्यक्षपदे माधव कुमार नेपालः, सम्मानित नेतृपदे झलनाथ खनालः, महासचिव पदे च घनश्याम भूषालः निर्वाचिताः आसन्। अत्रान्तरे नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय समितेः उपवेशः अद्य आहूतो वर्तते। दलस्य केन्द्रीय संरचनायाः निर्माणेन सहैव विविधेषु विषयेषु विमर्शनाय केन्द्रीय पदाधिकारीभिः सहितः उपवेशः अद्य प्रातः एकादशवादने आहूतो स्थिति उपाध्यक्षः जगन्नाथ खतिवडा असूचयत्।